इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री अद्य राजस्थाने स्वास्थ्याधारभूत संरचनां सुदृढं कर्तुं महत्वपूर्ण परियोजनानां आधारशिलां स्थापयिष्यति। एतासु परियोजनासु जोधपुरस्य अखिल भारतीयायुर्विज्ञान संस्थाने 50+ 300 शय्यानां ट्रॉमा सेंटर इत्येतम् आघातकेन्द्रं, सम्पूर्ण राज्ये प्रधानमन्त्री आयुष्मान भारत स्वास्थ्याधारभूत संरचनाभियानस्य अभियानान्तर्गतं 7 निरीक्षण केन्द्रैः युताः परियोजनाः च सम्मिलिताः सन्ति। श्री नरेन्द्र मोदी जोधपुर विमानस्थात्रे अत्याधुनिकस्य नूतन स्थानक भवनस्य शिलान्यासं करिष्यति। एतद् भवनं न्यूनातिन्यूनं 24,000 वर्ग मीटर मिते क्षेत्रे 80+400 कोटि रूप्यकाणां व्ययेन निर्मास्यति। एतस्मात् नवीन स्थानक भवनात् व्यस्त समयावधौ 500+ 2,000 यात्रिणः यात्रासेवायाः लाभं प्राप्स्यन्ति, अपि च अनेन क्षेत्रस्य पर्यटने अपि वृद्धिः भविष्यति। प्रधानमन्त्री आईआईटी जोधपुर परिसरस्य अपि लोकार्पणं करिष्यति। अस्य निर्माणे 35+ 100+ कोटि रूप्यकाणां व्ययः जातः अस्ति। राजस्थानस्य केन्द्रीय विश्वविद्यालये आधारभूत संरचना विकासस्य अन्तर्गतम् उन्नत प्रयोगशालायाः कर्मचार्यावास क्रीडा योग विज्ञान केन्द्रस्य च उद्घाटनं करिष्यति। श्रीमोदी विश्वविद्यालये केन्द्रीय पुस्तकालयस्य छात्रावास भवनस्य च अपि शिलान्यासं करिष्यति। सः प्रायः 75+ 400+ कोटि रूप्यकाणां विभिन्न मार्गीय परियोजनानाम् अपि शुभारम्भं करिष्यति। अनेन सम्पर्क सौविध्यं विवर्ध्य व्यापार जीविकयोः सर्जने वृद्धिः भविष्यति। राज्यस्य यात्रावधौ श्रीमोदी द्वयोः नूतन रेलयानयोः ध्वजम् उत्थाप्य शुभारम्भं करिष्यति। अस्यां यात्रायां जैसलमेर स्थात्रात् दिल्ली पर्यन्तं रुनिचा एक्सप्रेस, मारवाड़ जंक्शन स्थात्रात् खाम्बलीघाट पर्यन्तं धरोहर रेलयानं च सम्मिलिते स्तः। धरोहर रेलयानेन पर्यटनाय प्रोत्साहनं प्राप्स्यते, क्षेत्रीय जीविकायाः नवीनावसराः च सर्जिष्यन्ते। एतां परियोजनाम् अतिरिच्य प्रधानमन्त्री अन्ये द्वे रेल परियोजने राष्ट्राय अर्पयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य मध्यप्रदेशस्य अपि यात्रां करिष्यति। सः राज्ये 6+ 200 कोटि रूप्यकाणां परियोजनानाम् उद्घाटनं लोकार्पणं च करिष्यति। एताः परियोजनाः मार्ग, रेल, वात्येन्धन नलिका, वास, स्वच्छ पेयजल सम्बद्धाः वर्तन्ते। श्रीमोदी इन्दौर नगरे लाइट हाउस परियोजनायाः उद्घाटनं करिष्यति। अस्याः निर्माणं प्रधानमन्त्री आवास योजना शहरी इत्यस्याः योजनायाः अन्तर्गतं 28+ 100 कोटि रूप्यकाणां व्ययेन जातमस्ति। अस्याः अन्तर्गतं 1,000+ परिवाराः लाभान्विताः भविष्यन्ति। प्रधानमन्त्री 48+ रूप्यकाणां विभिन्न मार्गीय परियोजनानाम् उद्घाटनं लोकार्पणं च करिष्यति, येन मध्यप्रदेशे मार्ग संरचनायाम् उन्नतिः भविष्यति। ऋतुविज्ञान विभागेन आगामि दिवसद्वयार्थं बिहार, झारखण्ड, पश्चिम बंग, सिक्किम, उत्तरीय ओडिशासु अतिवृष्टेः अनुमानः कृतः अस्ति। ऋतुविज्ञान विभागेन सूचितं यत् देशस्य पूर्वोत्तरीय भागेषु दिनत्रयं यावत् अतिवृष्टिः भविष्यति। चीनस्य हांगचौ इत्यत्र 19वीं एशिया क्रीडा स्पर्धासु भारतेन अधुनावधि 81 पदकानि जितानि। भारतेन ह्यः 3 स्वर्ण पदकानि, 5 राजतानि, 4 च कांस्यानि पदकानि जितानि। पदकतालिकायां भारतं सम्प्रति 4थे स्थाने वर्तते। सिक्किमे तीस्ता नद्यां जलाप्लावात् अधुनावधि 69 जनाः लुप्ताः, 5 जनाः च मृत्युम् उपगताः सूच्यन्ते। क्रिकेट क्रीडासु अद्य नरेन्द्र मोदी क्रीडांगणे अहमदाबादे पुरुषाणां आईसीसी विश्व चषक स्पर्धा आरप्स्यते। इति वार्ताः।